अस्य श्री भगवदादित्य स्तोत्र महामंत्रस्य अगस्त्य ऋषिः अनुष्टुप् छन्दः सूर्य नारायणो देवता सूं बीजं यं शक्तिः मम कीलकम् मम आदित्य प्रसाद सिद्ध्यर्थे जपे विनियोगः आदित्याय अंगुष्ठाभ्याम् नमः अरुणाय तर्जनेभ्याम् नमः दिवाकराय मध्यमाभ्याम् नमः प्रभाकराय अनामिकाभ्याम् नमः सहस्रकिरणाय कनिष्ठिकाभ्याम् नमः मार्ताण्डाय करतलकरपृष्ठाभ्याम् नमः एवम् हृदयादिन्यासः भूर्भुवः सुवरोमिति दिग्बन्धः
ध्याये सूर्यमनन्तकोपि किरणं तेजोमयं भास्करम् भक्तानामभयप्रदं दिनकरं ज्योतिर्मयं शङ्करम् आदित्यं जगदीशमच्युतमयं त्रैलोक्यचूडामणिम् भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डमाद्यं शुभम् भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डम् आद्यं शुभम् संसारभयनाशनः ब्रह्मस्वरूपबुधये मध्याग्ने तु महेश्वरः हस्तकाले स्वयं विष्णुः त्रयी मूर्तिर्दिवाकरः काले स्वयं विष्णुः त्रयी मूर्तिर्दिवाकरः एकचक्ररथो यस्य दिव्य कनकभूषितः सोऽयं भवतु नः प्रीतः पद्महस्तु दिवाकरः पद्महस्तः परं ज्योतिः परेशाय नमो नमः अण्डयो निर्महासाक्षी आदित्याय नमो नमः अण्डयो निर्महासाक्षी आदित्याय नमो नमः love. ధర్మమూర్తిర్దయామూర్తి సత్వమూర్తిర్నమో నమః సదేశాయ సూర్యాయ శాంతేశాయ నమో నమః క్షయాపస్మారగుల్మాది దుర్దోషవ్యాధినాశనం సంపత్కరం చైవ సర్వాభీష్ట ప్రదాయకం ఇతి శ్రీ సూర్యనారాయణ స్తోత్రం సంపూర్ణ.